समय अभ्यास कर रहा है जो सिद्धांत कौमुद्य स्त्री प्रत्यय प्रकरण चतुर्दश पाठ फेब्रवरी मास से ऊनविंश दिनांक येनाक्षर समान नायम अधिगम्य महेश्वरा तस्म व्याकरण प्रोक्तम तस्मै पाणिनये नमः मुख्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्ति परिभाव्य च वैयाकरण सिद्धांत कौमुदीयं विरच्यते। स्त्री प्रत्यय प्रकरणम् अनुवर्तयामः। वर्णादनुदात्तात्तोपधात्तोनः इति सूत्रमधीतः। किमस्ति सूत्रे? वर्णवाचकः शब्दः अनुदात्तान्तः तोपधः इति त्रीणि निमित्तानि सन्ति। यदि त्रीणि अपि निमित्तानि सन्ति तर्हि तस्मात् वर्णवाचकात् प्रातिपदिकात् वर्णवाचकान्तात् प्रातिपदिकात् नीश् प्रत्ययः भवति, न तु नीप् नीप् एव भवति, अग्रे नीश् अस्ति। सो नीप् प्रत्ययः भवति, ककारस्य नकारादेशोऽपि भवति इति सूत्रार्थः। एनी एत इति उदाहरणं दत्तम्। एत इति पदं श्वेतवाचकम् अर्थात् वर्णवाचकं श्वेतवर्णवाचकं पदम् अनुदात्तान्तमपि अस्ति वर्णानां तर्णति नितान्तानाम् इत्यनेन त इत्यनेन त इति यस्य शब्दस्य अन्ते अस्ति वर्णवाचकस्य तस्य अनुदात्तः अन्ते भवति इति अतः अनुदात्तान्तः सोपधः उपधायां तकारः अस्ति तस्मात् नीप् एत इ इति भवति तकारस्य नकारादेशे कृते एन इ इत्येति च इत्यनेन अकारस्य रूपे एनी इति रूपं वैकल्पिकं सूत्रम्। अतः यदा नीप् वा नकारादेशो वा न भवति तदा स्टाप् भवति अजाद्यतष्टाप् इत्यनेन एता इति अपरं रूपम् एनी एता एवमेव रोहिणी रोहिता इति। एतदुक्त्वा अग्रे पाणिनिना उच्यते अन्यतो नीश् अन्यतः नीश् इति छेदः वर्णात् अनुदात्तात् तोपधात् इति अनुवर्तते। सो तोपधात् अन्यतः अनुदात्तात् वर्णात् नीश् भवति इति अन्वयः। तोपधभिन्नात् सो अदर् दान् दट् विच् हेस् सकार इन् द उपधा वर्णवाचिनः अनुदात्तान्तात् प्रातिपदिकात् शेषं तु समानं। सो इट् शुड् बि अ वर्णवाचक एण्ड् इट् शुड् बि अनुदात्तान्त बट् इट् शुड् नाट् बि तोपध सो अदर् देन् सकार इन्दोपध तोपधभिन्नात् वर्णवाचिनः अनुदात्तान्तात् प्रातिपदिकात् स्त्रियां नीश् स्यात् इति सूत्रार्थः। नीप् न भवति किन्तु नीश् भवति, नीप् नीशोः स्वरे व्यत्ययः भवति इति स्मर्तव्यम्। कल्माषी इति उदाहरणम्। कल्माषी इति व्याख्याने पश्यामश्चेत् चित्रवर्ण इत्यर्थः। सो कल्माष शब्दस्य चित्रवर्ण मिक्स्ड् कलर् इस् काल्ड् कल्माष। चित्रं किर्मीर कल्माष शबलयिताश्च कर्बुरे इत्यमरः चित्रं किर्मीर कल्माष शबल एत आल्सो गिविङ्ग् एत हियर् कर्बुरे इत्यमरः। सो kalmashi is a varna vachaka, it indicates chitra varna, a mixed color, and it does not have pakara indo padha, and it is anudattanta, therefore it gets nish kalmasha e isi eti cha etene nakara silope kalmashi एवं सारङ्गी इत्यस्ति। सारङ्गी इत्यस्यापि चित्रवर्ण इत्येव अर्थः। सारङ्गशबले त्रिषु इत्यमरः। So there also you have it. Chitma, chitram, kidnira, kalmasha, shabala. Oh sorry, saranga is not here. So sarangam,
sarangaha, shabale,
ishu. So shabala is a synonym for chitra and saranga is given as a synonym for shabala. So it means chitra, no? Sarangi. Laghavante dvayoshcha bahvacho guruhu iti madhyodatta vetav. So he again gives the pramana for them being anudattanta. Because this is not covered in tarnati nitantana. So there is another sutra. Laghavante dvayoshcha bahvacho guruhu iti sutrena madhyodatta. Madhya varnasya arthat salmashi shabde makarottarasya akarasya saranga shabde rekhottara akarasya. Udattattvam bhavati anudattam paramekavarjam iti shishtasvarena antyasya anudattattvam bhavati. So they end in anudatta. Anudattantat kim atrapi anudattantat iti anveti kivartham itse krishna kapila itse. So fitsvarena antodattav imau iti vyakhyane asti. So they get the udatta at the end, and therefore they are not anudattanta, and they will not get nish. The next sutra, and this is the main sutra for nish, one of the main sutras, shid gauradibhyascha पदद्वयमस्ति शित गौरादिभ्यः च अन्यतो नीश इत्यतः नीश इति अनुवर्तते शिद्भ्यः गौरादिभ्यश्च नीश स्यात् इति सूत्रार्थः. सो फॉर पार्टिकल विच हैव शकार एज इट एंड फॉर वर्ड्स विच हैव बीन गिवन इन द गौरादिगण वी हैव नीश प्रत्यय. सो शिद वी हैव ऑलरेडी सीन वंस इन श व्हेन वी डिड प्राचाम शुभ तद्धितः. सो बिकॉज शुभ इज शिद आफ्टर वी डू शुभ वी ऑल्सो हैव नीश टू गिव फॉर्म्स लाइक गार्ग्यायणी. सो सिमिलरली फॉर एनीथिंग एनी पार्टिकल इज अ शकार इट देयर आर सेवरल प्रत्ययस. सो वर्ड्स एंडिंग इन दैट प्रत्यय विल हैव नीश. नर्तकी इति उदाहरणं दत्तं दीक्षिते. सो नर्तकी इत्यत्र व्याख्याने नृति गात्र विक्षेपे धातु नृत्यति धातु तस्मात् शिल्पिनि शून् इति कृत् प्रत्ययः. सो देयर इज अ शून् प्रत्यय बीइंग एडेड व्हेन इट इज अ स्किल्ड आर्ट. शिल्प इज अ स्किल्ड आर्ट. सो समबडी हु इज स्किल्ड एट डांसिंग इत्यर्थे शून् प्रत्ययः. सो नृत् इत्यस्मात् शून् भवति योरनाकौ इत्यनेन शः प्रत्ययस्य इति शकारः इत् हलन्त्यम् इति नकारश्च इत्. So in shvun, you will remove sh by shvpratyasya and nakara by halantyam. Sasya lopaha ittanena udhayohu lopaha. Yoranato iti akadesha. You have vu left. Vu is replaced by aka by yoranato. Laghu padha gunaha. Puganta laghu padha sija ittanena gunaha bhavati. So nrut iti asisthane nart iti bhavati. Nartaka iti asisthane. लघुपथगुणः रपरपुं नर्तकशब्दात् नीश् शिद्गौरादिभ्यश्च इत्यनेन नीश् प्रत्ययः. तापोपवादः सिन्स् इट् इस् अकारान्त फोर् आल् अकारान्तस् औत्सर्गिकतया टाप् प्राप्नोति तस्य अपवादत्वेन नीश्. सो नर्तक इ इत्यस्ति यस्येति च इति अकारलोपः. सो अकार इस् रिमूव्ड् बै यस्येति च हिमां नर्तकी इति भावः. He gives a very detailed prakriya. You should by now be able to follow the prakriya of Balamanorama with these. He will not always give in this much detail, but here he has given everything. So, Nartaki iti rupam siddham. Shitvat atra nishbhavati. Gauradigane prathama shabdaha gaura shabdaha. Gaura shabdat nishikrate gauri iti agdhanam dahananam. गौरी इति श्वेता इत्यर्थः. सो गौर पदस्य श्वेतवर्ण इत्यर्थः. सो गौरी मीन्स् समबडी हू इस् फेयर
हृत् स्वरेण अन्तोदात्तत्वात् अन्यतो नीष् इति अप्राप्तेः इह विधिः. Since it is a Varnavachaka, would it have got by the previous sutras? This is the question. Varnananudattat ityanena nabhavati, kimartham sakaraha upadhanayam nasti, anyato ngish ityanena api nabhavati, tarattha antodattatvam, anudattantaha nasti ityataha, tasya api apraptihi, anyato ngish iti apraptehe iha vidhihi. Sanyashabdo va ayam. This is also the name. उमा कात्यायनी गौरी इत्यमरः. दशवर्षा भवेत् गौरी इति स्मृति. देयर इज आल्सो अ स्मृति वचन विच सेज अ 10 ईयर ओल्ड गर्ल इज कॉल्ड गौरी. देयर आर सेवरल वर्सेस कुमारी कन्या एटसेट्रा. दे हैव बीन टोल्ड फॉर गर्ल्स ऑफ डिफरेंट एजेस. सो अ 10 ईयर ओल्ड गर्ल कैन आल्सो बी कॉल्ड गौरी. सो देयर आर सेवरल मीनिंग्स टू द वर्ड. इन एनी केस शुद्गौरादिभ्यश्च इति सूत्रेण गौरादिगणे पाठात् नीष् प्रत्ययः भवति. अनडुहः क्रियाम् आम् वा इति वार्तिकमस्ति. अनडुक् शब्दः वृषभवाचकः. वी हैव सीन् दिस् वर्ड् इन् सुवन्तप्रक्रिया. सो अनडुक् मीन्स् आक्स्. So, for Anaduk, there is a sutra, Chatur Anadukoho Aam Udattaha, which gives Aam Adesha. And the Vatikara is saying, Anadukaha Kriyam Aam Va, Vikalpena Aam Bhavati. Anadvahi Anadugi, iti udaharana. Anaduk, it is the Nish Bhavati. Gauradigane Asti Idam Padam. So, this pada has been given in the Gauradigana. So, there is Nish. If there is Nish, there is Aam optionally. When there is Aam, Aam is an Agam. Mitvata Antyadatah Paraha Aam Agamaha. Anadu Aah E. Yanadeshe Kute Anadvahi. Aamaha Abhavete Anaduji. Anadvahi Anaduji. Anaduhaha Stri Ityathaha. Ano Vahati Iti Yogi Kova. So, either in Punyoga or in the Yogikartha, Anaha Vahati, that which bears the Ana, which is called the yoke. That is how we derive the word Anadu. So, in either case, you have this. Gauradigane Nipatana Deva Nishi Aam Vikalpaha. So, actually, in the Gauradigana, the Patha itself says Anadvahi Anaduhi. So, because of this, we know that Aam is Vikalpa. The Vartikakara has created this Vartika based on the Ganapatha. Since the Ganapatha gives both forms, we know that Aam is Vikalpa. Gauradigane Nipatana Deva Nishi Aam Vikalpa. Evanja Anaduhaha Sriyam Aam Vedi Vaktavyam Iti Vartikam Nakartavyam Iti Bhava. So, the Vartika is actually not needed because Panini has directly indicated through the Ganapatha that there is an optional arm. But probably the Vartikakara has based in Vartika on this aspect and made a general rule. Pippalyadeshya. Within the Gauradigana, there is a Gana Sutra. There are many cases where within a Gana, say you have the Sarvadigana which goes on like Sarva, Vishva, Upha, Ubhaya and all. In between you will have some sutras. Prathama Chayarma, Tayal, Patha, Katipaya, Nemashtra, Puru, Paravara, etc. There are four Gana sutras. We call them as Gana sutras. That is sutras which occur within a Gana. So similarly here there is a Gana sutra which says Pippalyadayascha. So Pippalyadayascha. अत्र नाम गौरादिगणे गौर मत्स्य मनुष्य शृङ्ग गवय हय मुखय गौतम अनड्वाही अनडुही तरुण तनुन श्वन् इति पठित्वा. सो दीस् आर् आल् वर्ड्स् विच् आर् बीङ्ग् गिवन् इन् द गौरादिगण. सो हि गिव्स् अ लिस्ट् आफ् वर्ड्स् इति पठित्वा पिप्पल्यादयश्च इति उक्त्वा. सो देन् पाणिनी सेस् पिप्पल्यादयश्च अण्ड् आल्सो वर्ड्स् विच् बिलाङ्ग् टु द पिप्पलि आदिगण इत्युक्त्वा पिप्पली हरीतकी कोशातकी पृथिवी मातामही इत्यादि पठितम्.
So they are words which belong to a subset of the Gauradis. So all these words will also have nish.
Tatra pippali shabdasya jativasitve api.
So it is a jativasaka. It is a type of tree. Vrikshavisheshavasaka. So pippali shabdasya jativasitve api. So for all jativasaka shabdas, jatenasti vishayanayopadhaatiti agresutramasti. Jativasaka lakshanaha nish. So there is a nish pratyaya being given for jativasakas.
Jativachitve api niyatastrilingatvat nishaha prapte hai.
But that sutra will apply for words which are both in pullinga and strilinga. That is,
jatehe astri vishayat.
For words which are not nityastrilingas. That sutra, jatehastri vishayat, will apply only for words which are not nityastrilingas. But this word, that is pippali, is a compulsory strilinga.
Niyatastrilingatvat.
Nishaha prapte hai. It would not have got nish by that sutra, and therefore he has included that in the Gauradi Gana. The part of it.
Shvan shabda situ.
There is also a word shvan in the sutra.
Rannebhyaha iti nipi prapte, nishathaha iha pathaha.
So because it is makaranta, it would have got nish by Rannebhyaungi. Sorry, it would have gone neep by Rannebhyaungeep. To prevent that neep and to get nish, he has included that in this gana. Svare visheshaha. The difference between neep and nish is in svara.
Akriti ganoyam.
The Gauradi gana is an akriti gana. That is, it can take on added words which are similar in nature, that is, which have nish. And which do not have another sutra for nish can be added on to this. Akriti ganoyam iti
gauradihi ityarthaha.
Pippalyadehe avantara ganasya prayojanam chintyam. So now there is a question, why did Panini create a subclass called Pippalyadeshya? Generally when he creates an avantara gana, that there is a subclass within a class, there is some special karya which is told for the subclass. So for words which fall into the subclass, there will be the general karya. Samanyataha tasya ganasya yat karyam tat karyam api bhavati. Kintu avantara ganasya yat karyam tadapi avantara ganasya kinchit vishishtam karyam api bhavati. For example, within the sarvadi we have tyadadis. There are 8 words which fall into a subclass called tyadadi. Tyadadina maha iti tyadadina meva vishishtam kinchit karyam bhavati. But here, for the Pippalyadi, there is no special karya which has been told. So, the Vyakhyanakara says, Pippalyadehe avantara ganatve prayojanam chintyam. When he says chintyam, it means it should be thought, which means it is not required. He could have simply included that in the main Gauradi gana, because the only karya which is being given here is nish by Shiv Gauradi. So next he says in the Vyakhyana itself, Matya Shabdat Gauraditvat Nishi Vishesham Dashaitum Aha. There is the word Matya which has been included in the Gauradi Gana. So when you do Nish, there is some special Karya. So for that he brings in a new sutra. Surya Tishyagatya Matyana Ya Upadhyaya. The sutram. So this sutra does not belong to the Sri Pratyaya Prakarana. It is a Loka Sutra. Shishtadhyaye vaktate, Trini vadani santi, Surya Tishya Agastya Mathyanam Yaha Upadhyayaha. Angasya ityadhikaraha, Dhelopo kadravaha ityataha, Lopaha iti anuvartate. So there is the anuvarti of the word Lopa. Angasya Upadhyayaha Yasya Lopahasya. The Yakara, which is the Upadha of an Anga, is deleted, sachedya suryadyavayavaha. If that yakara is a part of these 4 words, surya, tishya, agastya and matsya. So the yakara in the upadha will be deleted. So the sutra does not mention will.
किं तस्मिन् परे लोपः भवति इति मोक्तम् तदेव वार्तिकानि सन्ति मत्स्यस्य नियाम् इति प्रथमं वार्तिकम् सो द वर्ड् मत्स्य ईशि परे सो वेन् इट् इस् फालोड् बै नी स्त्री प्रत्यय लयकार विल् बि डिलीटेड् तेन इह न मत्स्यस्य इदं मात्स्यम् सो इन् अदर् केस् सो द उदाहरण द एक्साम्पल् फार् इट् इस् एक्चुलि मत्स्यी मत्स्य इत्यस्मात् गौरादिगणे पाठात् षित् गौरादिभ्यश्च इत्यनेन ईश् भवति मत्स्य ई इत्यस्ति मत्स्यस्य ञ्याम् इत्यस्ति ञ्याम् ईशि परपः सूरतिष्यागस्य मत्स्यानां यौपधायाः इत्यनेन यकारस्य लोपः सो मत्स ई इति भवति इत्यति च इत्यनेन अकारलोपे मत्सी इति रूपं तदेव उदाहरणम् It is given a bit later in the Mula, but the Udaharana is this. Tena ihana, because the Vartikakara says, Nyam eva lopaha. This is a Niyama. See, for the word Matsya, Yakara lopa will happen only when followed by the Ni, Nish Pratyaya. Therefore, Matsyasya idam, Matsyam, and Pratyaya bhavati, Tarjitaha, Matsya a is this, Asadu lopaha na bhavati. It will not be deleted and you hear the yakara in matsyam. So matsi, you can ask you, matsya shabda, noradi nishi yalopaha, yasya kicha iti akara lopaha. Surya dasya yohu, cheta nyamcha. For Surya and Agastya. In, when followed by cha, and when followed by ni, there is yalopa. So this again, this is a vartika which belongs to Surya Tishya Agastya Matsyanam Yopadhaya. So Surya Agastya Yohu, for the word Surya and Agastya, yakana will be deleted when followed by cha pratyaya. Cha is a tadhita pratyaya. And ni is nish. So the examples are given in the व्याख्यानम् सूर्यः इत्यस्ति छ प्रत्यये सूर्य छ इति भवति छकारस्य आयनेयीयफढकछकाम् प्रत्ययादीनाम् इत्यनेन ईय इति आदेशः सूर्य ईय इत्यस्ति यकारस्य लोपे सूर ईय इति भवति यस्य इति च इत्यनेन अकारस्य लोपे सूरीयः इति रूपम् सूरी सूर्यस्य स्त्री इत्यर्थे संयोगादाख्यायाम् इत्यनेन नीश् भवति सूर्य ई इत्यस्ति यकारस्य लोपे अकारस्य अस्यपि च इत्यनेन लोपे सूरी इति रूपम् सो इन् बोत् वेन् फालोड् बै छ प्रत्यय अण्ड् वेन् फालोड् बै नीश् देर् इस् यलोप सिमिलर्लि फार् अगस्त्य अगस्तीयः सो वेन् इट् फालोड् बै छ द फार्म् इस् अगस्तीयः वेर् यकार इस् डिलीटेड् Also, when followed by Nish, there is Lopa, so the form will be Agasti. Neha, Sauryam, Agastyam. So in other cases, say for example, when there is An, there is no Lopa, the form will be Saurya and Agastya. Tishya Pushya Yoho, Nakshatra Ani Yalopaha, iti Vachyam. So for the words Tishya and Pushya, Nakshatra Ani, then it is followed by An, if you look at the Vakhyana Tishyati. Nakshatrena Yuktaskalaha, Sandhi Vela Ritu Nakshatrebhyo An, iti chavihite, Nakshatra Sambandhini Ani Parataha. And An Pratyaya, which is given for Nakshatra. So Tasvin An Pratyaya Parataha, Tishya Pushya Yoho Lopaha. So the yakara of the word tishya and pushya. Okay, so the vartikakara is adding the word pushya. It is not there in the sutra. It is being added. So tishya pushya yoho. Lopaha. Yakarasya lopaha. Ityarthaha. Attatra tishyatya yalopaha niyamyate. So tishya would have gotten yalopa by the sutra. So he is giving a niyama that nakshatra ani eva yalopaha. Yakara will be deleted only when followed by the anna. Pushyasya tu aprapto vidhiyate. So the word pushya, there was no an. शिष्येण युक्तः पूर्णमासः शिष्ये भवो वा तैषः
सो दट विल बी द फॉर्म सो आई हैव अण् प्रत्यय शिष्य अ यकार इज डिलीटेड एंड अकार इज डिलीटेड आदि वृद्धि सो द फॉर्म विल बी तैषः एवं पौषः नेह शिष्यस्य पुष्यस्य वा अयं तैष्यः पौष्यः सो दिस डज नॉट बिलोंग इन स्त्री प्रत्यय मीन देयर इज नो स्त्री प्रत्यय फॉर दिस Tishya and Tishya, the yaloka will occur when followed by Nakshatra and. So the next question he raises, if you look at the Vyakhyana itself following Matsi iti, Matsya Shabdat Gauradhinishi Yalopaha Yasyati Chai Vyakara Lopaha. Nanu, Pitruvya Matula Mata Maha Pita Mahaha iti Sutre, मातुः मातुः पिता पितुः पिता इति विग्रहे मातृपितृभ्यां दामः चि तिलोपे मातामह पितामह शब्दौ निपातितौ सो द वर्ड्स मातामह एंड पितामह आर जस्ट अ सेकंड प्लीज So the words Matamaha and Pitamaha have been given by the Sutra. Pitravya Matula Matamaha Pitamaha, where it is Nipatana. Okay, they say it is Damaha Unadi Pratyaya. But there is Nipatana of Matamaha and Pitamaha. Matamaha Pitamaha Shabdau Nipatitau. Tatra, Matuhu Mata Pituhu Mata Iti Vigrahe, Damaha Daha Shitvam Vihitam, Matari Shitcha Iti. So there is also Shitva being given by the same sutra. There is a Shitva being given. So Matari Shitcha. Tatashta Shitva Vidhana Deva Nish Siddhehe. Because it is Shitta, Shidgauradhishta Chatra, Shitva Deva Nish Bhavati, Nish Siddhehe, Gauradhishu Matamahi Shabda Pataha, Natartavyaha. So why is the word Matamahi included again in Gauradhivana? Since it is Shitta, it already gets Nish by Shitva, due to Shitva. So then why has it been included again in the Gauradhigana? It is Prashna. Matari Shitcha iti Shitva Deva Siddhe Gauradishu Matamahi Shabda Pathat Anityaha Shitaha Nish. So that says that for Shitva Prayuttaha Nish Anityaha, it is not compulsory. There are some cases where Nish due to Shitva might not occur. Whereas in Mata, to show that or to indicate that Nish due to Shitva is Anitya, Panini has included the word Matamahi in Gauradhigana. So that is what he says in the Vyakhyana. So Damstra iti Udaharanam Darshayati. Damshehe Damnishasa iti Karane Shtran. So for the Damshadhatu, there is Shtran Pratyaya, which is Shit. Atra Shitve Satyapi na Nish iti ha. So even though there is Shit, there is no Nish, instead there is Tap and the form is Damstra. So to indicate this, that Shitva Prayuttaha Nish Anityaha iti Pradashayitu Meva, Gauradishu Matamahi Shabdasya Pathaha iti Dichirai Utta. So, Damshtreti. So, next is the big sutra, Janapada Kunda, which we will see in the next class. Any questions? Then how do we know when to apply Nish and when not to apply? It's a very valid question. If it is Anitya, when we are saying Anitya, it does not mean it will not apply. I mean, mostly it will apply. But there are some forms where there is no Nish. We find where there is Chitva and there is no Nish.
to substantiate that, we say it is anitya. Means generally if you teach it, you can still apply nish always. But if there is a form where you find where it is shit and it does not have nish, shishta prayoge, yadi shitaha api nish nasti, tarhi katham tasya samarthanam paniniyatvam iti chet, anena samarthaitum shakyate. So this is just a technique for substantiating some forms. They are rare. Certainly they are very rare. But there are some forms where it is, you find that it is shit and still the prayoga does not have nish. So in such a case you can use this to support the absence of nish. But as a general rule, if you find shit, there will be nish. So the anitya is always, there is a problem. Where will it apply and where not is always a question which has to be determined through vyakhyana. Any other questions?
ఏనాక్షరసమాం నాయం అధిగమ్య మహేశ్వరాత్ కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినియే నమః. మునిత్రయం నమస్కృత్య తదుక్తీశ్ పరిభావ్య చ వైయాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే.